अयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झाः। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य ओडिशा पश्चिम बंगयोः प्रवासे भविष्यति। ओडिशायाः मयूरभंज मण्डले राष्ट्रपति द्रौपदी मुर्मू वर्यायाः अष्टषष्टितमे जन्म दिवसोत्सवे प्रधानमन्त्री तया सह पहाड़पुर ग्रामे सम्मिलितो भविष्यति। तदनन्तरं तौ नेतारौ ओडिशा राज्ये मोहन चरण माझी प्रशासनस्य वर्षद्वयस्य कार्यकाल पूर्त्यवसरे एकां विशाल जनसभां सम्बोधयिष्यतः, यत्र हि 47,000 कोटितोप्यधिक रूप्यकाणां विकासात्मक परियोजनानां शुभारम्भो भविष्यति। पश्चिम बंगे प्रधानमन्त्री पश्चिम बंग दिवसावसरे भागं ग्रहीष्यति, यत्र हि अनेकासां प्रणालीनां शिलान्यासम् उद्घाटनं च विधास्यति। अस्मिन्नेव अवसरे प्रधानमन्त्री पीएम कृषि सम्मान निधिं प्रसारयिष्यति, येन देशस्य 9.44 कोटि कृषकेभ्यः 80+8,18,000 रूप्यकाणि साक्षात् तेषां वित्तकोषेषु स्थानान्तरितानि भविष्यन्ति। एनटीए इति राष्ट्रिय परीक्षा संघटनेन प्रख्यापितं यत् श्वः आयोज्यमानायाः नीट यूजी 20-26 पुनः परीक्षायाः निष्पक्षं पारदर्शं च संचालनाय वयं पूर्णरूपेण सज्जाः। परीक्षेयं भारतस्य 150+500 नगरेषु, विदेशस्य च 14 नगरेषु आयोज्यन्ते। इत्यन्तराले एनटीए संस्था परीक्षार्थीनां साहाय्यार्थम् एकाम् आधिकारिक व्हाट्सएप वाहिनीमपि निरमात्। संघटनेन स्पष्टीकृतं यत् सर्वे आधिकारिकाः सन्देशाः केवलं तस्य प्रमाणीकृत संख्यातः एव प्रेषयिष्यन्ते। सा संख्या वर्तते 9178279802877 इति। विदेशमंत्री डॉ एस जयशंकर प्रत्यपादीत यत् अशांत जगति भारतेन स्वकीय राष्ट्रहितस्य रणनीतिक स्वायत्ततायाः अथ बहुध्रुवीयतायाः रक्षणं कुर्वता सहैव विभिन्न भौगोलिक क्षेत्रैः सह स्वसंबंधाः इतोपि सुदृढाः करणीयाः। नवदिल्ल्यां भारत अमेरिका मञ्चस्य गोष्ठ्याः सत्रं सम्बोधयन् डॉ जयशंकरः अवोचत् यत् अनेक जटिलतासु सत्सु अपि भारतामेरिका देशयोर सहभागित्वं विभिन्नेषु क्षेत्रेषु अविरतं वर्धमानम् अस्ति। तेन सविशेषं प्रकटीकृतं यत् यथा यथा भारतस्य वैश्विक उत्कर्षो भविष्यति तथा तथा तस्य राष्ट्रिय हितानि अपि विशालानि विविधानि च भविष्यन्ति। प्रधानमन्त्री नरेन्द्र मोदी ह्यः नवदिल्ल्याम् आयोजितस्य एकस्य कार्यक्रमस्यान्तर्गतं प्रधानमन्त्री विकसित भारत रोजगार योजनायां 400+2,000 कोटिरूप्यकाणां प्रोत्साहन राशिं वितरितवान्। एकस्मिन् महत्वपूर्णे निर्णये सर्वोच्च न्यायालयः उदघोषयत् यत् निर्धारिते पदपथि चलनस्य अधिकारः नागरिकस्य मौलिकाधिकारो वर्तते। न्यायमूर्ति पीएस नरसिम्हा अथ न्यायमूर्ति एएस चंद्रूरकर इत्यनयोः प्रतिपादितं यत् निर्धारित पदपति चलनस्य नागरिकस्यायं मौलिको अधिकारः प्राथमिकः अस्ति, सहैव यन्त्रीकृत वाहनानां गमनागमनस्य अपेक्षया अस्य प्राथमिकता भविष्यति। फीफा विश्वकप प्रतियोगितायां मैक्सिको दलेन दक्षिण कोरिया दलम् 1-0 पराजितम्। क्रिकेट क्रीडायां भारत अफगानिस्तान योर्मध्ये तृतीया अन्तिमा च एकदिवसीया स्पर्धा अद्य अपराह्णे चेन्नई नगरस्य एमए चितम्बरम क्रीडांगणे भविष्यति। अवधेयं यत् एषः द्वन्द्वः अपराह्णे 1:30 वादनतः समारप्स्यते। इति वार्ताः।